पंचदशोध्याय पुरुषोत्तमयोग श्री भगवान उवाच ऊर्ध्वमूलमधः साकम् अश्वत्थं प्राहुरप्ययम् छन्दांसि यस्य पर्णानि यस्तं वेद स वेदम् अधोश्चोर्ध्वं प्रसृतास्तस्य शाखा पुनः प्रवृत्ता विषय प्रवाल अधश्च मूलान्ननुसंसन्ततानि कर्मानुबंधीनि मनुष्यलोके न रूपम सेह तथोपलभ्यते नन्तु न चादीर्न च संप्रतिष्ठा असत्तमेनं सुवीरूढमूलम् असंगशस्त्रेण दृढ़ेन चित्ता ततपदं तत्परिमार्गितव्यं यस्मिन्निकता न निवर्तन्ति भूयः तमेव चद्दं पुरुषं प्रपद्ये यतः प्रवृत्ति प्रसृता पुराणी निर्माणमोहादितसङ्गदोषावद्धात्मनित्ता विनिवृत्तकामा द्वन्द्वैर्विमुक्ता सुखदुःखसङ्गैर्गच्छन्त मूढापदमप्ययं तत् न तद्भाषयति सूर्यो न शशाङ्कु न पावकः यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ममैवांशो जीवलोके जीवभूतः सनातनः मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यदवाप्नोति यच्चाप्युत्कामतिशरः गृहीतैतानि संयाति वायुर्गन्धा निवासया श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषा जतन्तो योगिनश्चैनं पश्यन्त्यात्मन्नवस्थितं जतन्तोपकृतात्मानो नैवं पश्यन्तचेतसः जदादित्यगतं भो तेजो जगद्भाषयतेऽखिलं जच्चन्द्रमसि जच्चाग्नौ तत्तेजो विद्धि मामकं गामाविश्य च भूतानि धारयाम्यहमौजसा पुष्णामि चौषधि सर्वा सोमभूत्वा रसात्मकः अहं वैश्या नरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्मृतिज्ञानमपूवनञ्च वेदैश्च सर्वैरहमेव विद्धु वेदान्तकृद्वेदविधेव चाह दाविमौ पुरुषौ लोके खरश्चाखर एव च खरस्सर्वाणि भूतानि कूटस्थो खर उच्यते उत्तमा पुरुषस्तन्न परमात्मेत्तुदारिता जो लोकत्रयमाविश्व विभर्तव्य ईश्वर जस्मात् खरमतीतोऽहमखरादपि चोत्तमः अतोऽस्मि लोके वेदे च प्रथित पुरुषोत्तमः जो मामेव मसङ्गमूढो जानाति पुरुषोत्तमं स सर्वविद् भजति मां सर्वभावेन भारत इति गुह्यतमं शास्त्रम् इदमुक्तं मया नघ एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्तश्च भारत इति श्रीमहाभारते शतसहस्रां संहितायां वैयासिकां भीष्मपर्मणि पर्मणि श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः।